अथ पंचमोध्याय दुर्वासा जी की दुख निवृत्ति। श्री शुक उवाच एवं भगवता दिष्टो दुर्वासा चक्रता पिता अम्बरी समुपावृत्य तत्पादौ दुखितो ग्रहित तस्य सोद्यमनं वीक्ष्य पादस्पर्श विलज्जितः अस्तावित्तधरेरस्त्रं कृपया पीडितो भृशम्। अम्बरीश उवाच त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषाम्पतिः त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च सुदर्शन नमस्तुभ्यं सहस्राराचित प्रिय सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इदस्पते त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिल यज्ञभुक् त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम्। नमः सुनाभाखिल धर्म सेतवे यधर्मशीला सुरधूम केतवे त्रैलोक्य गोपाय विशुद्ध वर्चसे मनो जवायाद्भुत कर्मणे गृणे प्रत्येजसा धर्ममयेन संघृतम् तमः प्रकाशश्च धृतो महात्मनाम् दुरत्ययस्ते महिमा गिराम् पते पदरूपमेतत् सदसत्परावरम्। जदा विशिष्टस्त्वमनञ्जनेन वै बलम् प्रविष्टो जित दैत्यदानवम् बाहूदरुर्वङ्घ्रिः शिरोधरांसि विक्रन् अजस्रम् प्रधने विराजसे सत्वम् जगत्प्राण खल प्रहाणये निरूपितः सर्वशो गदावृता विप्रस चास्मत्कुलदेवहेतवे विधेहि भद्रम् तदनुग्रहोऽहिनः। यद्यस्ति दत्तमिष्टम् वा स्वधर्मो वा स्वनुष्ठितः कुलम् नो विप्रदैवम् चेद् विप्रो भवतु विज्वरः। यदि नो भगवान् प्रीत एकः सर्वगुणाशयः सर्वभूतात्मभावेन द्विजो भवतु विज्वरः। श्रीशुक उवाच इति संस्तुवतो राज्ञो विष्णुचक्रम् सुदर्शनम् अशाम्यत् सर्वतो विप्रम् प्रदहत राजयाञ्चया समुक्तोऽस्त्राग्नितापेन दुर्वासा स्वस्तिमांस्ततः प्रशंसतमुर्विशम् जुञ्जानः परमाशिषः। दुर्वासा उवाच अहो अनन्तदासानाम् महत्त्वम् दृष्टमद्य मे कृतागसोऽपि यदराजन् मङ्गलानि समीहसे दुष्करः कोऽनु साधूनाम् दुस्तजो वा महात्मनाम् यैः सङ्गृहीतो भगवान् सातुताम् ऋषभो हरिः। जन्नाम श्रुतिमात्रेण पुमान् भवति निर्मलः तस्य तीर्थपदः किं वा दासानामवशिष्यते राजन् अनुगृहीतोऽहम् त्वयाति करुणात्मना मदघम् पृष्ठतः कृत्वा प्राणा जन्मेऽभिरक्षितः। राजा तमकृताहारः प्रत्यागमनकाङ्क्षया चरणोपसङ्गृह्य प्रसाद्य समभोजयत् शोषित्वा दृतमानीतम् आतिथ्यम् सार्वकामिकम् तृप्तात्मा नृपतिम् प्राह भुज्यतामिति सादरम्। प्रीतोऽस्म्यनुगृहीतोऽस्मि तव भागवतस्य वै दर्शनस्पर्शनालापै आतिथ्येनात्ममेधसा कर्मावदातमेतत्ते गायन्ति स्वस्त्रियो मुहुः कीर्तिम् परम् पुण्याम् च कीर्तयिष्यति भूरियम्। श्रीशुक उवाच एवम् संकीर्त्य राजानम् दुर्वासः परितोषितः जयौ विहाय सामन्त्र्य ब्रह्मलोकमहैतुकम् संवत्सरोऽत्यगात्तावत् जावता नागतो गतः मुनिस्तद्दर्शनाकाङ्क्षो राजा अभक्षो बभूवः। गते च दुर्वासि सोम्बरीशो द्विजोपयोगात्तिपवित्रमाहरत् ऋषेर्विमोक्षम् व्यसनम् च बुद्ध्वा मेने सुवीर्यम् च परानुभावम्। एवम् विधानेक गुणः स राजा परात्मनि ब्रह्मणि वासुदेवे क्रियाकलापैः समुवाह भक्तिम् जजा विरिञ्च्यान्निरयांश्चकार। श्रीशुक उवाच अथाम्बरीशस्तनयेषु राज्यम् समानशीलेषु विसृज्य धीरः वनम् विवेशात्मनि वासुदेवे मनो दधध्वस्तगुणप्रवाहः। इत्येतत् पुण्यमाख्यानम् अम्बरीशस्य भूपतेः संकीर्तयन् अनुध्यायन् भक्तो भगवतो भवेत्। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् नवमस्कन्धे अम्बरीशचरितो नाम पञ्चमोऽध्यायः।